ॐ शुक्लां भरतरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये। गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीवमुपास्महे। सरस्वती नमस्तेस्तु वीणापुस्तकधारिणी हंसवाहनमारूढे विद्यादानं कुरुष्व मे। ॐ श्रीगुरुभ्यो नमः। हरिः ओं। सर्वेभ्य नमः महोदय।
धन्यवादः भगिनी। अस्तु, सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषये अस्ति तत्र स्वरसन्धिः। स्वरसन्धिविषये वयं तत्र सुवर्णदीर्घसन्धिः अपि गुणसन्धिः वृद्धिसन्धिः सर्वं पूर्वमेव दृष्टवन्तः। यण् सन्धिः अपि तत्र तस्य विषये अपि तत्र चर्चा अभवत्। इदानीं प्रायशः तत्र यान्तवान्तसन्धिः इति तस्य समीपे स्मः। तत्र पुटसङ्ख्या 20 अस्ति। तत्र द्वितीय अभ्यासे नवम अभ्यासः कृतवन्तः वा? तत्र
पञ्चमबिन्दु करणीयं महोदय। दातृ
कर्मसु अनुषज्यते, तत् कृतं वा?
आं महोदय।
अस्तु, तर्हि दातृयोगः ओजः। अस्तु
ओजः।
अस्तु अस्तु, समीचीनं, धन्यवादः भगिनि। अस्तु, शोभा भगिनी आरम्भं करोति वा तर्हि?
आं महोदय। अस्तु, तत्र धातृयोगः ओजः इति संयोगे धातृ इत्यस्य ऋकारः योगः ओ इति ओकारः। इदानीं तत्र गुणसन्धिः भवति, अतः तत्र ऋकारस्य अर् इति आदेशः भवति, धातर् इति भवति, तदनन्तरं पुनः ओजः इति
खलु भगिनि।
हा, ऋकारस्य रेपः किम् उक्तवती,
क्षम्यताम्, केवलं रेपः खलु।
ऋकारस्य सर्वदा अर् इति एव आदेशः, इत्युक्ते तत्र हा रेपः, तदनन्तरम् आ इति किं तत्र अकारस्य उरण्परः इत्यनेन अकारसहितरेपः अर् इति भवति तत्र ऋकारस्य आदेशः इति महोदय।
किन्तु भगिनि तत्र
सन्धिकार्यं तद् न भवति, तद् अङ्गकार्यं।
तत्र यान्तवान्तसन्धिमध्ये तदस्ति भगिनि, किन्तु तत्र अत्र यण्सन्धेः मध्ये
ओ क्षम्यतां भ्रमः ऋकारस्य अस्तु अस्तु, तत्र ऋकारस्य रेपः
भवति,
यण्सन्धेः रेपः न भवति, रेपः एव भवति खलु महोदय,
इकारस्य रेप
केवलं रेपः। अस्तु अस्तु,
किं
हा अस्तु अस्तु, इत्युक्ते तत्र धातुयोगः रेपः भवति, धातुयोगः रेपः, अपि च धात्रोजः इति वर्णमेलनेन भवति, धात्रोजः
इति अस्ति भगिनि। समीचीनं, यथा तत्र पूर्वसंस्कृते उदाहरणं दत्तं, द्वितीय उदाहरणं तत्र पितृयोगः ओजः पित्रोजः
पित्रो, सत्यं सत्यं, तत्र
दात्रौदार्यं मात्रैश्वर्यम् इति, हा अस्तु समीचीनं। हा, अतः तत्र दातृजः ऋकारस्य स्थाने रेपः, दातृयोगः ओजः दातृजः इति, समीचीनं।
धन्यवादः, क्षम्यतां,
हा चिन्ता मास्तु भगिनि। हा, तर्हि अग्रे तत्र वेदा भगिनी अग्रे।
हा महोदय, क्षिपामि योगः अजस्रम्, क्षिपामि योगः अजस्रम्, तत्र ईकार परे ईकारपूर्व पदे ईकार अस्ति, अन्य परे अस्ति अकारः, ईकार अकार असवर्णवर्णः अस्ति, तत् कारणेन यणसन्धि भूत्वा तत्र ईकारस्य स्थाने यकार आयाति। क्षिपामि, न क्षिपमि वा, क्षिपामि, क्षिपामि, क्षिपां य यकार अकारयोजनेन य भवति क्षिपां यजस्रं क्षिपां यजस्रम् इति
क्षिपां यजस्रं समीचीनं भगिनि
भगवद्गीता श्लोकः वा षोडश अध्यायः 29 आर् 19 महोदय तद् अध्याय 16th अध्याय 19th श्लोकम् ओके मूढग्राहेणात्मनो यत् पीडयति
तद् नास्ति
वा
न न तान् तान् अहम् इति तान् अहं
16 19
चाप्टर्
16-19 it is given. Oh, I am looking at 17. Sorry. 16-19. Tanakam dushata kruran samsareshu naradhaman shipamya jasram jasram
shipamya jasram
shipamya jasram ashubhana surishveva yonishu okay
ashubhana ashubhana surishu एव च एव योनिषु
योनिषु सुरीषु एव योनिषु
न तत्र आसुरीषु योनिषु
आसुरी
अशुभान् आसुरीषु एव योनिषु
योनिषु करेक्ट् तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् क्षिपाम्यस् अजस्रम् इत्युक्ते क्षिपामि इत्युक्ते त्यजति
तर्हि तत्र क्षिपामि इति क्रियापदं खलु
क्षिपामि क्षिपामि
कर्तृपदं किमस्ति
क्षिपामि तान् अहम्
अहं तर्हि अहं क्षिपामि अहं क्षिपामि इति तर्हि तत्र कर्तृपदम् अहं क्षिपामि इति क्रियापदं तर्हि तत्र कर्मपदं नाम कम् अथवा कान् अथवा कान् तान् इति द्वितीया विभक्ति बहुवचनं सः तं तौ
तान्
तान् कान् इति इत्युक्ते इति इदानीं वदति तत्र
पूर्वत्र सूत्रं किं वदति तद् एकं
तत्र तस्य नास्ति अत्र एव नर अधमान्
नर अधमान् इत्युक्ते
अधमः
नरः
अधमाः ये सन्ति
नरान् मध्ये यः अधमान्
अधमः
अधमः
नराणां मध्ये अधमः अथवा नरेषु अधमाः
संसारेषु
क्रूरान् संसारेषु इति तत्र नास्ति केवलं क्रूरान् प्रथमतया तत्र द्वितीयविभक्तिपदान् स्थापयामः
क्रूरान्
नराधमान्
द्विषतः इत्युक्ते
द्विषतः ये द्वेषं कुर्वन्ति
ओ द्वेषं कुर्वन्ति वा अस्तु
नाम भगवन्तं तत्र तत्र यस्य तत्र भगवतः द्वेषः अस्ति ये भगवन्तं द्विषन्ति
क्षिप्याम् अजस्रम्
अशुभान् अपि
अशुभान्
द्वितीयवाक्ये अपि अशुभान् तान् किं
कुत्र क्षिपामि इत्युक्ते असुरीषु योनिषु
हा नाम तेषां तत्र जन्म असुरकुले मध्ये
असुरकुले तस्य जन्म
केवलम् अत्रैव भवति एव इति अस्ति खलु
असुरेषु
एव योनिषु केवलं तत्र असुरै जन्म एव भवति कियत् कालपर्यन्तम् अजस्रम्
ओ अजस्रम् इत्युक्ते ओके
तत्र समाप्तिः एव नास्ति
फोर् एवर्
अच्छा
ओके
अजस्र
तो भगवान् वदति तत्र ते अहं क्षिपामि तान् कान् इत्युक्ते नराधमान् क्रूरान् द्विशतः जनान् अहं क्षिपामि कुत्र क्षिपामि असुरेषु असुरीषु अपि च अशुभान् दत्तवि वा
अशुभान् अशुभान् इति तत्र कान् जनान्
कान् जनान्
तत्र ये जनाः नराधमान् तत्र अहं क्रूरान्
अपि च नराधमान्
नराधमान्
अशुभान् अपि वा अशुभान्
तत्र क्षिपामि तत्र संसारेषु तत्र संसारेषु नाम ते संसारस्य मध्ये सन्ति तान् सर्वान् अहं कुत्र क्षिपामि तत्र यदा संसारेषु नाम तत्र अनेकजन्माः जन्म भवति खलु तत्र अनेकजन्मनि जन्मनि जन्मानि जन्मानि भवन्ति तेषु अहं केवलं तत्र असुरेषु यो एव योनिषु क्षिपामि
क्षिपामि इति सत्यम्
अतः केवलम् एकमेव पदम् एतावत् तस्य विवरणं न कृतं द्विशतः इति खलु द्विशतः इति पदस्य विभक्ति कोऽपि वदति वा
षष्ठी अहं मन्ये द्विशत् द्विशत्
इति भाति इति भाति समीचीनमेव तदपि समीचीनं किन्तु अत्र
प्रथमा वा द्विशतः इति
अन्य कोऽपि शत्रुप्रत्यय अस्ति
शत्रुप्रत्यय
समीचीनं तत्र पठन् पठति तत्र पठन् इति अस्ति पठन् इति तत्र पठत् इति प्रातिपदिकं तत्र पठत् पठन् पठन्तौ पठन्तः पठन्तं पठन्तौ पठतः अत्र द्विषन् द्विषत् द्विषन् द्विषन्तौ तादृशम् अतः द्विशतः इति यतः तत्र उक्तं तत्र पल्लवी भगिनी उक्तवती खलु
द्वितीया भगवती
शत्रुप्रत्यय द्वितीया बहुवचनं
कर्मपदमस्ति वा तद्
हा समीचीनं ये द्वेषं कुर्वन्ति तान् तान् ये द्वेषं कुर्वन्ति ये क्रूराः सन्ति ये नराधमाः सन्ति
अहं तान् द्विषतः अहं क्षिपामि कुत्र अहं
तान् इति विशेष्यं भगिनि
आम्
कीदृश तान् नाम ते इति तत्र तान् कीदृश ये क्रूराः सन्ति ये नराधमाः सन्ति ये अशुभाः सन्ति क्रूराः सन्ति द्विषन्तः सन्ति इति तान् सर्वान् क्षिपामि इति अस्ति
तर्हि अजस्रम् इति अजस्रमिति विशेषणमस्ति वा
अजस्रमिति न अजस्रमिति अव्ययमस्ति भगिनि
अव्ययं
सर्वदा इति तत्र विना समाप्तिः समाप्तिः एव नास्ति नाम तत्र यदा ते तत्र नाम केवलम् एकमेव असुरजन्म इति नास्ति
वारं वारं
असुरजन्म एव भवति इति फारेवर् इति अर्थः
एव इत्युक्ते तत्र निश्चयेन न महोदय
न केवलम् इति तत्र सीमा केवलं
एव
न आसुरीषु एव इति
कासु योनिषु इत्युक्ते तत्र केवलम् असुरीषु योनिषु केवलं तत्र नाम केवलं तत्र असुरजन्म एव भवति अन्यजन्म तेषां न भवति इति क्षिपामि तत्र क्षिपामि नाम तद् करोमि इति अस्तु अग्रे सुजाता भगिनी अग्रे
आं महोदय सरस्वती योगः ऐश्वर्यं सरस्वती इकारः अस्ति ऐश्वर्यम् इत्य ऐकारः अस्ति सरस्वत्यैश्वर्यं भवति एकारयोगेन ऐ यै भवति यकारः
यकार आगच्छति यकारः अथ सरस्वत्यैश्वर्यं सरस्वत्यैश्वर्यं समीचीनं भगिनि
धन्यवादः
समीचीनं भगिनि अस्तु अग्रे पल्लवी भगिनि
वक्तृ औदासीन्यं प्रथमपदे ऋकार अस्ति अन्तिमवर्ण द्वितीयपदे आदिवर्ण औकारः अस्ति तर्हि ऋकारयोगे औकार ऋकारस्य रेफ भवति तर्हि वक्त्रौदासीन्यं
वक्त्रौदासीन्यं तत्र औदासीन्यम् इति पुनः तत्र उदासीनः इति अस्ति खलु सः वक्ता उदासीनः अस्ति तस्य औदासीन्यम् इति भावः इति अस्ति समीचीनं भगिनि हा अस्तु अग्रे उषा भगिनि
आं महोदय यान्तावान्तदेशसन्धिः
यान्तावान्त आदेशसन्धिः
सन्धिः आवरणे दत्तमस्ति अयादिसन्धिः
तर्हि यान्तावान्तादेशसन्धिः तत्र यान्तावान्त आदेशसन्धिः तत्र सवर्णदीर्घसन्धिः खलु आदेशः
आदेशः
आदेशः अस्तु अथवा नास्ति केवलम्
एतानि उदाहरणानि परिशीलयत् परे योगः ये ते हर् योगः एकारयोगः एकार अनन्तरं हर् योगः ऐ योगः ये भूत्वा हरये इति भवति परन्तु ऐ कथम् आगतं महोदय
तत्र इदानीं तदेव तत्र नूतनविचारः तत्र यान्तावान्त आदेशसन्धिः
हर् योगः ऐ योगः हरये
ीचोयवः दत्सूत्रं
हा नाम तत्र एकार ईकार तत्र अकार अकारः अस्ति चेत् तत्र तत्र समानवर्णः अकारः अकारः अस्ति
चेत्
तत्र सुवर्णदीर्घसन्धि भूत्वा आकारः आगच्छति खलु
आं महोदय
किन्तु एकारः एकारः मध्ये तत्र किं भवति अकारः तत्र ह्रस्व अकारः दीर्घ अकारः अस्ति खलु
पर एकार तु दीर्घ एव अस्ति
हा अत्र तत्र सवर्णदीर्घसन्धिः अत्र तस्य प्रभावः अत्र नास्ति
परन्तु ऐ इति कथम् आगतं तत्र ऐ इति
एतत् सर्वं तत्र सूत्रम् अग्रे पश्यामः भगिनि इदानीं केवलं तत्र किम् अस्ति इति वदा परिचयं प्राप्नुमः तदनन्तरं तत्र प्रथमपाठं समाप्य अस्माकं चिन्तनम् अस्ति तत्र स्वरूपमहोदयस्य करपत्रं तत्र सूत्रपाठस्य विषये तत्र सन्धिविषये करपत्रम् अस्ति करपत्रं सर्वं पठामः तत्र अनेक तत्र जनाः अस्मिन् वर्गे ते जानन्ति अतः किन्तु पुनः परिचयं भवतु
परन्तु अहं न पठितवती महोदय
अहमपि न पठितवान् नाम अहं पठितवान् किन्तु बहु पूर्वम् अतः मनसि स्मरणं नास्ति इति अस्तु तर्हि आरम्भं करोतु भगिनि तर्हि तत्र द्वितीयं
विष्णो योगः ये विष्णो ओकार अस्ति तत्र विष्णु योगः ओकार योगः ये अनन्तरं विष्णु योगः अव् योगः सो विष्णु अव् ये विष्णवे इति रूपं भवति
तर्हि तत्र हरये योगः ए हरये विष्णो योगः ए विष्णवे विष्णवे इति भवति समीचीनम् इति भवति समीचीनं भगिनि अस्तु अग्रे तत्र वेदा भगिनी इदानीं तृतीयः
तृतीयः नै योकः अकः वा अस्तु नै योकः अकः नकार ऐकार योग अकः तत्र ऐकार योग अकारस्य तत्र यान्तवान्तादेशा सन्धि भूत्वा तत्र आय् भवति यत्र ऐ अस्ति तत्र आय् आय् इति आदेश ऐ योग अ ऐ स्थाने आय् आदेशः भवति आय् योगाहक आयकः न योग आयकः नायकः इति रूपमाया
नायकः इति भवति समीचीनं भगिनि अस्तु अग्रे धन्यवादः भगिनि अग्रे शोभा भगिनि
आम् महोदय पूजार्हौ योगः अरिशूदन इति पूजार्हौ इत्यत्र औ अन्त्यस्य औकारस्य पृथक् कृत्वा पूजार्योगः औ योगः अकारः योगः रिसूदन इति इदानीम् औ इति स्वरः अस्ति इति कृत्वा औकारस्य स्थाने यान्तवान्त आदेशसन्धिः इत्यनेन आव् इति आदेशः भवति औकारस्य अतः पूजार्ह योगः आव् योगः आयोगः रिसूदन वर्णमेलनेन पूजार्हाव् अरिसूदन पूजार्हावरिसूदन इति पदं निष्पद्यते
समीचीनं भगिनि पूजारावरिसूदन अस्तु भगिनि समीचीनं इदानीं तत्र श्लोकः प्रथम एव अस्तु न न क्षम्यतां द्वितीय अध्याये खलु
द्वितीय अध्याये
चतुर्थ
एकक्षणं महोदय द्वितीय अध्याये चतुर्थ अस्तु कथं भीष्मम् अहं सङ्ख्ये द्रोणञ्च मधुसूदना इषुभिः प्रतियोत्स्यामि पूजार्हा वरिसूदना इति अर्जुनः वदति कृष्णं कथं भीष्मम् अहं सङ्ख्ये द्रोणः च इति द्रोणः च मधुसूदन द्रोणञ्च क्षम्यतां द्रोणं च मधुसूदन इषुभिः प्रतियोत्स्यामि इति इषुभिः प्रति योत्स्यामि पूजार्हा वरिसूदन तत्र पूजार्हौ इति दृष्टवन्तः अरिसूदन इति इत्युक्ते अरीन् सूदयति इति तत्र कथम् इति अव्ययपदम् भीष्मम् इति द्वितीयविभक्तौ तत्र भीष्मम् इति अहं सङ्ख्ये सङ्ख्ये इत्युक्ते तत्र
युद्धे
युद्धे
हा युद्धे सप्तमी तत्र युद्धे द्रोणम् इति द्वितीय भवति च मधुसूदन इत्युक्ते कृष्णस्य नाम मधु इत्यस्य सूदनः इति इषुभिः मधु इति तत्र किं तत्र राक्षसः आसीत् तस्य सूदनं कृतं कृष्णेन इति इषुभिः इषुः इत्युक्ते तत्र बाणः इति तत्र बहुवचने तृतीयविभक्ति इषुभिः प्रति योत्स्यामि योत्स्यामि इत्युक्ते युद्धं करोमि इति तत्र भविष्यत्काले योत्स्यामि इति भवति अपि च पूजा अर्हौ इत्युक्ते ये पूजां पूजनीयाः सन्ति पूजा अर्हौ पूजनीयौ पूजनीयौ सन्ति तान् कथं प्रतियोत्सामि इति अपि च अरिसूदन इति इत्युक्ते तत्र कृष्णः एव
कृष्णः एव अरिसूदन मधुसूदन सम्बोधनं खलु
सम्बोधनं भवति तत्र
द्विवारं सम्बोधनं भवति वा तत्र
भवति अत्र आमामां मधुसूदन अपि अरिसूदन
तत्र प्रथमं कथं भीष्मम् अहं सङ्ख्ये द्रोणं च मधुसूदन इति वदति, तदनन्तरम् इषुभिः तत्र किमपि कारणं भवेत्, एकत्र मधुसूदन इति वदति, एकत्र हरिसूदन इति वदति
इति द्वयमपि तत्र सम्बोधन अहं प्रति योत्स्यामि, केवलं योत्स्यामि इति नास्ति, प्रति योत्स्यामि
तेषां प्रति इति भवति तत्र, तेषां प्रति कथं योत्स्यामि अहं, यतोहि ते पूजार्हौ सन्ति.
अपि तत्र अहं कथम् इति प्रश्नः, सङ्ख्ये इत्युक्ते तत्र युद्धे तत्र भीष्मं द्रोणं च इति अस्ति खलु, भीष्मं द्रोणं च इति अस्ति. अपि इषुभिः नाम इषुभिः प्रतियोत्स्यामि नाम तत्र बाणेन
प्रतियोत्स्यामि
तत्र इति अस्ति, किन्तु भीष्मं द्रोणं च इति तत्र च इत्युक्ते समूहः खलु, भीष्मं द्रोणं च इति अस्ति, तत्र पूजार्हौ इति नाम समूहे ये जनाः सन्ति तौ पूजार्हौ खलु.
तत्र अर्हौ इति द्वितीया, यतोहि तत्र केवलं भीष्म अपि द्रोणद्विवचनं
द्वितीयविभक्ति अपि, यतोहि तत्र पूजनीयौ तत्र यथा देवः देवौ देवाः, देवं देवौ
देवान्
तथैव तत्र पूजार्हः पूजार्हौ इति तत्र द्वितीयविभक्ति द्विवचनं द्वौ स्तः द्वौ अपि पूजार्हौ स्तः तौ पूजार्हौ अहं कथं प्रति योत्स्यामि इति. अस्तु समीचीनं भगिनि,
अस्तु
उत्तमम्. अस्तु अग्रे पल्लवी भगिनी अग्रे.
द्वौ इमौ प्रथमपदे औकारः अस्ति अन्तिमवर्ण, द्वितीयपदे आदिवर्ण इकारः अस्ति, औकारयोगे इकार, तर्हि औकारस्य आ आदेशः भवति, तर्हि द्व अधिक आ अधिक इमौ, तर्हि द्वाविमौ इति सिद्धरूपमस्ति. 15.6 द्वाविमौ पुरुषौ लोके शरश्चाक्षर एव च, क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते. द्वाविमौ द्वौ इमौ पुरुषौ लोके क्षरः च अक्षरः एव च, क्षरः सर्वाणि भूतानि कूटस्थः अक्षरः उच्यते. लोके लोके द्वे प्रकारे जनाः सन्ति, जीवाः सन्ति, क्षरः च अक्षरः च. क्षरः इत्युक्ते यस्य किं नाशः, अक्षरः यस्य नाशः न भवति, तर्हि ये क्षरः सन्ति, क्षरः सर्वाणि भूतानि, ये क्षरः सन्ति ते
नाम सर्वाणि भूतानि क्षरः इति उच्यते. क्षरः इत्युक्ते सर्वाणि भूतानि, किन्तु कूटस्थः, कूटस्थः नाम तत्र तत्र कूटस्थः इति तत्र प्रायशः तत्र कूटे इत्युक्ते तत्र उपरि इति अर्थे, पर्वतस्य उपरि कूटः इति वदन्ति खलु, तत्र
चित्रकूटः
इति तत्र कूटे इत्युक्ते तत्र पर्वतस्य उपरि स्थानम्, अति उपरि
तत्र सर्व अक्षरः इति उच्यते.
हा तत्र कूटः इति पर्वतस्य
आत्मा इति मन्यते वा
इति तादृशं सत्यं भगिनि, किन्तु अत्र प्रथमतया कूटस्थः इति पदस्य नाम कूटः इत्युक्ते तत्र यथा पर्वतस्य उपरितनभागः अपि स्थः इत्युक्ते स्थितः यः स्थितः अस्ति तत्र कूटे स्थितः अस्ति अक्षरः
अक्षरः
तत्र प्रायशः तत्र आत्मा इति भिन्नः अत्र जीवात्मा इति स्वीकर्तुं शक्नुमः अथवा तत्र नाम तत्र
जीवात्मा वा
इति तादृश अर्थे नाम तत्र शरीरे अस्ति किन्तु तत्र किं तत्र सर्वं पश्यति तत्र साक्षी साक्षी इति वदामः खलु तत्र साक्षी इति एकः अर्थः अन्यः अर्थः तत्र नाम तत्र आत्मा किन्तु मायेन बद्धः आत्मा इति तादृशार्थः अपि अत्र अस्ति किन्तु किन्तु कूटस्थः इति यत् पदमस्ति तस्य विवरणं कुर्मः कूटस्थः नाम कूटे स्थितः सः कूटस्थः सः अक्षरः इति उच्यते अतः द्वाव् इमौ द्वौ योगः इमौ द्वाविमौ
क्षः लोके
लोके लोके इति लोके इत्युक्ते तत्र लोके एतत् सर्वं तत्र द्विप्रकारकजीवाः अस्तु समीचीनम् अग्रे भगिनी तत्र एतेषु इति अग्रे
आम् एतेषु उदाहरणेषु एकार ओकार ऐकार औकारवर्णेभ्यः परतः स्वराः सन्ति तत्र ए वर्णस्य स्थाने अय् आदेशः ओ वर्णस्य स्थाने औ आदेशः ऐ वर्णस्य स्थाने आय् आदेशः औ वर्णस्य स्थाने आव् आदेशः च सम्पन्नः अस्ति
ए ऐ ओ अत्र केवलं तत्र यदि ए ओ ऐ औ अस्ति चेत् द्वितीयवर्णः स्वरः भवेत् तावदेव अन्य कोऽपि नियमः नास्ति अत्र नाम समानवर्णः एतत् किमपि नास्ति यः कोऽपि वर्णः द्वितीयवर्णः यः कोऽपि स्वरः भवतु तत्र ज्ञान्तावान्ते
तर्हि एकारस्य ऐकारः भवति ऐकारस्य आय भवति ओकारस्य अव भवति औकारस्य आव भवति
इति अस्ति समीचीनं
क्रमेण ए ऐ ओ औ इत्येभ्यो वर्णेभ्यः स्वरे परे एकारस्य स्थाने अय ऐकारस्य स्थाने आय ओकारस्य स्थाने अव औकारस्य स्थाने आव इति आदेशाः भवन्ति ए ऐ ओ औ अधिकस्वरः इति अय आय अव आव अधिकस्वरः अय आय इत्येतौ यान्तौ य अन्तौ अय अधिक आय य अन्तौ अन्ते य अस्ति इत्यर्थः अव आव इत्येतौ व अन्तौ वान्तौ अस्मिन् सन्धौ यान्तवान्ताः पूर्ववर्णस्य स्थाने आदेशाः भवन्ति अतः यान्तवान्तादेशसन्धिः इति एतस्य नाम
इति अस्ति तर्हि तत्र यान्तावान्तदेशः यान्तः आगच्छति अथवा वान्तः तस्य आदेशः भवति इति कृत्वा यान्तवान्तादेशसन्धिः इति भवति अस्तु समीचीनं अस्तु अग्रे तत्र समीचीनं भगिनि अस्तु अग्रे सुजाता भगिनी अग्रे
आं महोदय रिक्तस्थानानि पूरयत भूमावसफलम्
तत्र सपत्
भूमावसफलम्
भूमावसपत्नम्
पत्नं क्षम्यतां महोदय
तत्र लघु अस्ति
पत्न ऐ कुड् नाट् मेक् औट्
चिन्ता
भूमायोगः असपत्नं भूमा सपत्नं
तर्हि तत्र
भूमा
वसपत्नम् इति अस्ति तर्हि अस्मिन् पदे कुत्र सन्धिः भवेत् अपि तत्र कीदृशसन्धिः इति कथं जानीमः तत्र यान्तावान्तदेशसन्धिः एव भवेत् यतोहि उदाहरणमस्ति तु तत्र कुत्र अस्ति तत्र
भूमायोगः असपत्नम् आव् आदेशः
भवति अस्ति आव् इति भागः अस्ति समीचीनं भगिनि तत्र भूम् योगः आव् इति अस्ति भूम् योगः आव् तदनन्तरम् असपत्नम् तर्हि तत्र भूम् योगः आव् योगः असपत्नम् अस्ति चेत् तत्र आव् इति तर्हि तत्र आव् अस्ति चेत् तत्र पूर्वस्मिन् उदाहरणे तत्र उदाहरणचतुष्टयम् अस्ति खलु तत्र प्रथम उदाहरणं द्वितीय उदाहरण उपरि कीदृशम् अस्ति
उकारः अस्ति
कः स्वरः अस्ति प्रथमस्वरः
प्रथमस्वर भूमा आकारः अस्ति महोदय
भगिनी नाम तत्र आव् इति
तस्य
पदस्य आदेशः आव् इति आदेशः खलु
आव् आदेशः भवति
आव् आदेशः अस्ति चेत् उपरि पश्यतु तत्र प्रथम
आव् आदेशः भवति चेत् वो भवति
औ तत्र उदाहरणम् एकवारं पठतु भगिनि
औ औ
उदाहरणं पठतु किम् उदाहरणं समीचीनमस्ति आव् यत्र उदाहरणं यत्र आव् इति आदेशः आगतं
उदाहरणं
पश्यतु
पूजार्हौ
तत्र हा तत्र आव् इति अस्ति समीचीनं समीचीनं भगिनि हा अस्तु तर्हि अत्रापि तत्र किं भवति भूम इति तत्र अन्तिमवर्णः कः भवेत्
भूमौ भवति
भूमौ औ इति अस्ति समीचीनं भूमौ योगः असपत्नम् भूमौ योगः असपत्नम् इति अस्ति समीचीनं भगिनि तर्हि तत्र श्लोकमपि एकवारं पठतु तर्हि
महोदय श्लोकमस्ति द्वितीयाध्याये अष्टमश्लोकमस्ति न हि पश्यामि मामानुपद्यात् यच्छोकमुच्चोषणमिन्द्रियाणाम् अवाप्य भूमा वसपत्नमुद्धम् राज्यं सुराणापि आधिपत्यम्
आधिपत्यम् वदति वा
न महोदय
आङ्ग्लभाषायां वदति चेत् अपि समीचीनमेव किञ्चित् वदतु तत्र 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 किमपि पठति तत्रापि अस्ति चेत् किमपि विवरणं किञ्चित् वदतु
किङ्ग्डम् इवन् इफ् ऐ गेट् आल् दिस् किङ्ग्डम् अण्ड् आल् इन्द्रिय I am is not happy even if he gets the kingdom and all sampadas
samichanam ha even if he get ha यदि प्राप्नोति यत् सर्वं प्राप्नोति चेदपि तत्र तत्र यद् तत्र
सन्तोषं
शोकं तत्र शोकं यदस्ति तद् तेन न गच्छति तत्र कथं गच्छति इति अहं न
जानामि
प्रपश्यामि अहं न पश्यामि एतत् यदि प्राप्नोमि मम शोकः गच्छति इति अहं न पश्यामि मम शोकः अपगच्छति इति एतद् अहं न पश्यामि अतः तत्र असपत्नं भूमौ असपत्नं रुद्धं राज्यं सुराणां च अपि अधिपत्यं नाम तत्र भूमौ असपत्नम् असपत्नं नाम तत्र तादृशम् अन्यत् किमपि नास्ति तत्र असपत्नं तस्य सदृशः नास्ति असपत्नं सपत्नं असपत्नं इति अस्तु समीचीनं भगिनि भूमौ इति सप्तमी भूमौ असपत्नं भूमावसपत्नं भूमावसपत्नम् इति अस्तु समीचीनम् अस्तु धन्यवादः भगिनि अग्रे उषा भगिनि
आं महोदय नञ् योगः अकः नञ् इति वर्णस्य वर्णे ऐ अस्ति अकः अतः नकार ऐकार अकः भवति ऐ स्थाने आय् आय् आगच्छति यान्तावान्तादेशसन्धि इत्यनेन अतः नञ् योगः अकः नायकः ना नकारयोग आय योग अकः इति भूत्वा नायकः इति रूपं सिद्ध्यति
नकारः योगः आय् योगः अकः
अकः
नायकः नायकः इति समीचीनं
श्लोकमस्ति प्रथम अध्याये अस्माकं तु विशिष्टाये तान्निबोधद्विजोत्तम नायका मम सैन्यस्य सञ्जातं तान् ब्रवीमि ते अस्माकं तु विशिष्टाः ये तान् निबोध द्विजोत्तम नायकाः मम सैन्यस्य सञ्जातं तान्
संज्ञार्थं
तान् ब्रवीमि ते अस्माकं द्विजोत्तम हे द्विजोत्तम द्विजोत्तम इत्युक्ते द्रोणाचार्य
तत्र समीचीनं भगिनि
अस्माकं तु हे द्रोणाचार्य
द्विजेषु नाम द्विजः इति अस्ति अस्ति खलु द्विजः यस्य जन्म द्विवारम् अभवत् किं भगिनि
ब्राह्मणः इति
अथवा तत्र यस्य उपनयनम् अस्ति अथ द्विजः इति द्विजः
हे द्रोणाचार्य मम सैन्यस्य नायकाः मम सैन्ये ये
सैन्ये तु टु अत्र तु अत्र तु विशिष्टाः
विशिष्टाः
नायकाः सन्ति
नायकाः सन्ति तान्
निबोध
निबोध
इत्युक्ते
भवान् जानाति लोट् लकार मध्यमपुरुष
जानातु त्वं तत्र भवान् जानातु अत्र किन्तु अत्र किमस्ति तत्र भवान् पठतु त्वं पठ तत्र निबोध इति तत्र मध्यमपुरुषे एकवचनं
भवान् अपि वक्तुं शक्नुमः न महोदय
किन्तु अत्र निबोध इति रूपं त्वम् इति एव अस्ति निबोध भवान् जानातु नाम निबोध नाम त्वम् इति तत्र यतोहि निबोध इति यत् नाम त्वं पठ इति अस्ति खलु भवान् पठतु किन्तु त्वं पठ खलु तत्र त्वं पठतु इति न वक्तुं
शक्नुमः
त्वं
पठ
तथैव तत्र त्वं निबोध एव
त्वं निबोध
निबोध अपि संज्ञार्थं नाम भवान् सम्यक् रीत्या ते के
जानाति
ते भवतः अवगमनं भवेत् तत्र के सन्ति अस्माकं
सैन्ये
अतः तत्र तान् ब्रवीमि तव कृते भवतः कृते तेषां नामानि
अहं वदामि
स्मारयामि ब्रवीमि ब्रवीमि ब्रू धातुः वदामि इति ब्रवीमि अस्तु तत्र
कः वदति
दुर्योधनः वदति
दुर्योधनः द्रोणाचार्यं दृष्ट्वा उद्दिश्य वदति
उद्दिश्य वदति नाम तत्र कौरवसैन्येषु उत्तमजनाः ये सन्ति तेषां नामानि
एकवारं
सः वदति स्मारयति इति अस्ति अस्तु समीचीनम् अस्तु अग्रे शोभा भगिनी अग्रे
आम् महोदय अग्रे पौ योगः अकः इति अस्ति पौ इति इत्यस्य अन्ते औकारः अस्ति औकारस्य तत्र आव् इति आदेशः भवति इति जानीमः यान्तवान्त आदेशसन्धेः सन्धिना अतः तत्र पाव् इति भवति प्रथमं पाव्योगः अकः वर्णमेलनेन पावकः इति भवति पावकः इति अग्निः इति अग्नेः अन्यनाम अस्ति
समीचीनं
अपि च अग्निः 223 अस्तु श्लोकं तत्र एतत् परिचितं श्लोकम् अस्ति महोदय
न दह्यति पावकः
इति नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः न चैनं क्लेदयन्यापः न शोषयति मारुतः तत्र नायनं छिन्दन्ति शस्त्राणि नायनं दहति पावकः च न च एनं क्लेदयन्ति आपः न शोषयति मारुतः इति इत्युक्ते कृष्णः वदन् अस्ति यत् आत्मा अस्ति आत्मानं एनम् इति तत्र आत्मानं कृते आत्मानम् उद्दिश्य न एनं छिन्दन्ति शस्त्राणि इत्युक्ते छेदनं कर्तुं न शक्नुवन्ति शस्त्राणि न एनं दहति पावकः अग्निः आत्मानं दहति दग्धुम् इति भवति वा महोदय तुमन् प्रायशः दग्धुं न शक्नोति अपि च अपि च तत्र दग्धः इति भवति इति मन्ये दग्धुम् इति प्रायशः न च एनं तथा एव एनं क्लेदयन्ति आपः इत्युक्ते तत्र आपः इत्युक्ते जलम् इति भवति तत्र नित्य बहुवचनम् आपः इत्यस्य क्लेदयन्ति अतः तत्र क्लेदयन्ति इति बहुवचने दत्तं क्लेदयन्ति इत्युक्ते तत्र आपः किं करोति जलेन तत्र क्लेदयन्ति इत्यस्य पर्यायवाचकपदं किम् अस्ति क्लेदयन्ति इत्युक्ते तत्र जलेन
तत्र प्रायश आर्द्रयति इति
आर्द्र धन्यवादः महोदय आर्द्रयति आर्द्रता न कर्तुं शक्नोति जलम् आत्मानः अपि च शोषयति मारुतः इत्युक्ते तत्र शुष्कः इति भवति तथा एव मारुतः ताम् आत्मा इत्युक्ते तत्र पुंलिङ्गे एव तं शुष्कं न कर्तुं शक्नोति मारुतः इति अतः तत्र केनापि तत्र भूतानि इति पञ्चभूतैः किमपि
पञ्चभूतैः तत्र
कैश्चिदपि पञ्चभूतैः तस्य किमपि परिवर्तनं न भवति न भवति तादृशम् अस्ति आत्मा इति इत्युक्ते तत्र मृत्युः न मृत्युः नास्ति इति अर्जुनं बोधयति मृत्युः नास्ति अव्ययः अस्ति अक्षरः नित्यः अस्ति इति सम्बोधयति अस्मिन् श्लोके
उत्तमं धन्यवादः भगिनि
धन्यवादः
अग्रे तत्र वेदा भगिनी अग्रे
अस्तु महोदय पूर्वरूपसन्धिः
इदानीं नूतनविषयः
एते उदाहरणे परिशीलयत मे योगः अच्युत मकार योगः ए योग अ योगः च्युत ए योग अ तत् स्थाने मकार योग ए तत्र अचिह्नमस्ति तत् अकारस्य स्थाने अपि च च्युत इति मे च्युत तत् चिह्नं किं वदामि तस्य नाम किम्
अवग्रहः इति
अवग्रहचिह्नं करेक्ट् धन्यवादः अवग्रहचिह्नं अवग्रहचिह्नम् अस्ति मे च्युत इति तत्र दत्तमस्ति तदेव तस्य रूपं भवति मे योग अच्युत अस्थाने अवग्रहचिह्न योजनं कृतं मे योगः अवग्रहचिह्नं अपि च च्युत इति तदेव मे च्युत इति तस्य रूपमस्ति प्रथम अध्याये एकविंशति इति प्रथम अध्याये एकविंशति सूत्रम् एकनिमिषं महोदय 21 न ओके 21 ओके अर्जुन उवाच सेनयोर् उभयोर् मध्ये रथं स्थापय मे च्युत याव तदेव वा श्लोकं 1.
आं भगिनि
1.21 ओके एक एव पङ्क्ति अस्ति तत्र अर्जुन उवाच सेनयोर् उभयोर् मध्ये रथं स्थापय मे च्युत तत्र अर्जुन वदति कृष्णं प्रति सेनयोः उभयोः मध्ये रथं स्थापय लोट्लकारे तत्र वदति कि सेनय उभयोः सेनयोः मध्ये रथं स्थापनं करोतु इति अर्जुन वदति मे अच्युत मे इत्युक्ते मम कृष्णः इति वा मम
न न मम इति नाम तत्र षष्टि मम मे इत्युक्ते मम नाम मम रथं
ओ मम रथं स्थापयतु इति वा अच्युत सेनयोरुभयोर् मध्ये मम रथं स्थापय इति वा
इति अस्ति भगिनि तत्र अच्युत अच्युत मम रथं
कृष्णः
अच्युतः इत्युक्ते कृष्णः
च्युतिः नास्ति इति खलु महोदय
सत्यं भगिनि
किं किं वदति भगिनि
च्युतिः इत्युक्ते नाशः अथवा
नाशः
च्युतिः नास्ति अच्युतः
अच्युतः अतः तत्र मम रथं तत्र
उभयोः सेनयोः मध्ये स्थापय
उभयोः सेनयोः मध्ये
स्थापय
मम रथं स्थापय
स्थापनं करोतु इति
अपि तत्र मध्ये इति सप्तमी किन्तु उभयोः सेनयोः इति तत्तु षष्टि द्विवचनं नाम तयोः मध्ये तयोः अत्र तत्र सर्व तत्र षष्टि एव तयोः मध्ये षष्टि तदनन्तरं मध्ये सप्तमी इति अस्ति. अस्तु समीचीनम्. अस्तु अग्रे पल्लवी भगिनि.
तुमुलो अभवत् योगे ओकार प्रथमपदे अन्तिमवर्ण ओकार अस्ति अग्रिम पदे आदिवर्ण अ अकार अस्ति तर्हि ओकारयोगे अकार पूर्वरूपसन्धि भूत्वा एकरूप भवति ओकार तर्हि तुमुलो अवग्रहचिह्न भवत् अवग्रहचिह्न अकारस्य स्थाने वयं स्थापयामः तुमुलो भवत् इति सिद्धरूपमस्ति 1.13 ततः शङ्खश्च भैर्यश्च पडवानकगोमुखाः सहसैवाभ्यहन्यन्त स शब्दस्तुमुलो भवत् डिफैनिङ्ग् एव डिफ्रेण्ट् instruments being blown tasmin samaye shankhah bhairya padavan gomukha padavaha anakah cha gomukha
tatra panavanaka iti eva
panavanaka एक अस्ति पणवानक एक एक एव शब्द अस्ति
क्षम्यतां भगिनि पणव आनक पणव आनक गोमुखः इति पणव इत्युक्ते तत्र लघु लघु अस्ति आनक इत्युक्ते बृहान् अस्ति तत्र ड्रम् तत्र
सहसा एव सहसा
इत्युक्ते तत्र
सैमल्टेनियस्लि
सहसा इत्युक्ते
इमिडियट्लि
तत्र वित् फोर्स् नाम तत्र सहसा
अभिहन्यत अभ्यन्यत अत्रापि सन्धिः अस्ति
अभिहन्यन्त अभिहन्यन्त तत्र आत्मनिपदि धातु लङ्लकारे अभिहन्यन्त अहन्यन्त अहन्यन्त अभि अहन्यन्त अभ्यहन्यन्त नाम हन् धातुः नाम तत्र तेषां तत्र हननम् अभवत् इति नाम तत्र तेन यदि हननं कुर्मः तदा एव तत्र शब्दः नादः भवति अतः यदि एव अभिहन्यन्त तदा सः शब्दः कीदृशः आसीत् तुमुलः
सः शब्दः तुमुलः अभवत्
तुमुलः अभवत् तत्र आङ्ग्लभाषायां तत्र तुमुलः इति पदस्य एकः अर्थः तत्र आङ्ग्लभाषायाम् अस्ति
भवान् एकवारम् उक्तवान् तत्र सम्यक् अस्ति इति
उत्तमः अस्ति खलु भगिनि तत्र यदि सः एव तत्र उच्चारणं बहु समीपम् अस्ति चेत् मनसि स्थापयितुं सारल्यम् अस्ति तत्र ततः तुमुलो तुमुलः तुमुल्टस् इति
शङ्खानां दमनं भेरिणां
सर्वेषां तत्र शब्दः तत्र
तत्क्षणम् एव अभवत्
तत्र यदि स्मः वयं तत्र किं श्रोत्रेन्द्रियम् अपगच्छति खलु तत्र डिसिबल्स् संख्या मध्ये तत्र कियत् आसीत् इति न जानीमः अतः तुमृतस्ति. अस्तु समीचीनं भगिनि धन्यवादः. अस्तु अग्रे तत्र सुजाता भगिनी अग्रे पठति वा.
आं महोदय. एतयोः उदाहरणयोः ये वो इति वर्णाभ्यां परतः अकारः अस्ति तत्र ये वो योगः आ इति वर्णयोः स्थाने ये ओ इत्यादेशः सम्पन्नः अस्ति. ये ओ इति वर्णाभ्यां परतः अकारः अस्ति चेत् ये ओ इति आदेशः सम्पन्नः अस्ति.
केवलं तदेव भवति, तत्र अकारः
अकारः
नास्ति.
अवग्रहचिह्न इदं चिह्नं स्पष्टप्रतिपत्ते पत्तये लिख्यते.
लिख्यते नाम स्पष्टीकरणार्थं.
स्पष्टीकरणार्थम् अवग्रहः
नास्ति तत्र. अकारः इदानीं नास्ति, इदानीम् अवगतम् तत्र नास्ति इति, अपगतम् अस्ति इति तत् सूचयितुं
तस्य स्थाने अवग्रहचिह्नः
लिख्यते.
पाणिनिना तु न
विहितं.
पाणिना तु न विहितम् पाणिनेन
इति नास्ति, पाणिनिना इति एव.
पाणिनिना तृतीया
पाणिनिना. हा, एतत् अभ्यासपुस्तके स्थापनीयम् अस्ति. ये अभ्यासपुस्तकं पठन्ति तत्र हरि हरिणा इति स्थाने पाणिनि इति पृच्छामः. बहु क्लेशः भवति तदा. पाणिनिना
विहितम्
नाम तत्र पाणिनिसूत्रे तत्र अवग्रहचिह्नस्य विषये किमपि नास्ति इति मन्ये खलु. इति एव
नास्ति महोदय, नन्तरम् आगतम्.
अतः तत्र पाणिनिना अस्मिन् विषये तत्र अवग्रहचिह्नः भवेत् इति किमपि न उक्तम्. अग्रे
पदान्तात् एकारात् आकारे परे एकारः अकारे परे एकारः पदान्तात् ओकारात् अकारे परे ओकारः इति पूर्वपरयोः स्थाने एकारादेशो भवति. एकादेशः भवति पूर्ववर्णः. ये वो आदेशः भवति अतः पूर्वरूपसन्धि इति अस्य नाम.
पुनरेकवारं पठतु भगिनि. पदान्तात्
अकारे परे एकारः पदान्तात् एकारात् अकारे परे एकारः पदान्तात् ओकारात् अकारे परे ओकारः इति पूर्वपरयोः स्थाने एकादेशो भवति. पूर्ववर्णः ये ओ आदेशः भवति अतः पूर्वरूपसन्धि इति अस्य नाम.
नाम एकारात् अकारात् इत्युक्ते अकारे परे इति नाम तत्र सप्तमी अस्ति, सति सप्तमी. यदि अकारः परः अस्ति पूर्वं तत्र एकारः अस्ति तदनन्तरम् अकारः परः अस्ति चेत् तदा ओकार अपि ओकार प्रथमं
अकारः
यदि अस्ति चेत् तदा अपि तत्र पदान्ताद् अन्ते
स्थाने
तदा किं भवति.
पूर्वपरयोः स्थाने एकादेशः भवति इत्यनेन पूर्वरूपसन्धि इति नाम.
हा स्थाने एकः आदेशः भवति कस्य आदेशः पूर्ववर्णस्य आदेशः
आदेशः भवति
पूर्ववर्णः एव आदेशरूपेण आगच्छति इति कृत्वा पूर्वरूपछन्दि नाम पूर्वस्य आदेशः तत्र पूर्ववर्णः एकारः वा ओकारः वा यः अस्ति तस्य आदेशः अतः पूर्वरूपसन्धिः किन्तु अत्र प्रायशः तत्र पदान्तादिति तस्य महत्त्वम् अस्ति खलु यतोहि
पदस्य अन्ते भवति
एकारः भवेत् यतोहि तत्र पश्यतु तत्र किं तत्र यदि तत्र किं हा पदस्य अन्ते भवेत् तत्र नाम यदि तत्र एकारः अपि अकारः अस्ति चेत् तत्र अन्यकार्यमपि भवितुमर्हति खलु अन्यसन्धिः अपि भवितुमर्हति खलु एकारः तदनन्तरम् अकारः अस्ति चेत् यान्तवान्तसन्धिः भवितुमर्हति ओकारः तदनन्तरम् अकारः अस्ति चेत् तदापि तत्र यान्तावान्तसन्धिः भवितुमर्हति किन्तु पदान्ते अस्ति चेत् तत्र यान्तावान्तादेशसन्धिः न भवति किन्तु पूर्वसन्धिः भवति अतः पदान्ताद् इति अस्ति
अतिपरे
भगिनि
एङ्गः पदान्तात् अति पदान्तात् एङ्गः अतिपरे इति भवति तत् महोदय
सूत्रं वा भगिनि
अत् वर्णः अस्ति चेदेव एङ्गः पदान्तात् अति इति सूत्रस्य प्रसक्तिः भवति
अस्तु अपि पदान्तात् इति तस्य महत्त्वं
पदान्तात्
अथैव तत्र मे इति अपि पदम् अस्ति तुमूलः अपि पदम् अस्ति
तर्हि अग्रिमपदे अपि आदिवर्ण अ इति एव भवितुं
सत्यं भगिनि
तदपि तदपि
अत एव तत्र पदान्तात् एकारात् अकारे परेत इति एव अस्ति अतः एव अतः तत्र अतः इति उक्तं खलु भगिनि भवती शोभ भगिनि
अतिपरे महोदय अति इत्युक्ते सप्तमी भवतौ
तत्र
पदान्तात् एङ्गः अतिपरे अतः तत्र एङ्गः पदान्तात् अति इति भवति अत्परे एव भवति एतत् कार्यं
तत्र अपि तत्र
तदेव अत्युक्ते ह्रस्वकारः तत्र तपरकरणं कृतम् अस्ति ह्रस्वस्य एव
समीचीनं तत्र प्रत्याहारः नास्ति खलु तत् अत्युत्तमः नास्ति
नास्ति
अत्युक्ते केवलं ह्रस्वकारः
ह्रस्वकारः
इति अस्ति अस्तु अस्तु एतत् सर्वम् अग्रे गत्वा पश्यामः अस्तु समीचीनम् अस्तु अस्तु
धन्यवादः
समीचीनं भगिनि अस्तु इदानीम् अग्रे अग्रेसरामः तर्हि तत्र अग्रे शोभा भगिनी अग्रे
आं महोदय तत्र पदान्तात् एकारात् इति तदारभ्य खलु महोदय
आम्
पदान्तात्
पठितवती
क्षमता तर्हि तत्र अग्रिमपृष्ठे एकारः योगः अकारः तत्र दीर्घ ए इति सूचितमस्ति तत्र ए किम्
केवलम्
अवग्रहचिह्नः एव तत्र अवग्रहचिह्नः एव तत्र किमर्थं दीर्घः नास्ति प्लुतः नास्ति
केवलं तत्र अवग्रहचिह्नः
इत्युक्ते अकारः आसीत् इति वा तत्र तस्मात् परं तत्र अकारः अस्ति इति आसीत् इति अपि च ओ योगः आ इति ओ इत्युक्ते तत्र सन्धि भूत्वा तत्र अकारः न दृश्यते पदस्य अवग्रहचिह्नः एव
निर्माणमपि सूचयति एतस्य पदम् एतादृशम् आसीत् इति तत्र पदच्छेदनं यदि कर्तुम् इच्छामः
तत्र
सुलभं भवति
अकारः आसीत् तस्मिन् स्थले पररूपसन्धिः इदानीं पररूपसन्धिः एतानि उदाहरणानि परिशीलयत प्रा योगः एजते तत्र प्रा इति उपसर्गः एजते इति क्रियापदं प्रायोगः आयोगः ए योगः जते इति पदस्य पदच्छेदं कृत्वा तत्र अकार एकारयोः संयोगे तयोः एकरूप एकादेशः भवति ए इति तयोः द्वयोः स्थाने एकः आदेशः भवति एकारः एव अतः प्रायोगः ए योगः जते प्रेजते इति भवति तत्र अकार एकारयोः ए इति आदेशः प्रायोगः ए योगः जते प्रेजते इति पदं निष्पद्यते
अपि तत्र अयोगः एकारः अस्ति चेत् तत्र अन्यसन्धिः अपि भवितुम् अर्हति खलु तत्र
तत्र अत् एङ् गुणः इति गुणः भवितुम् अर्हति न गुणवर्णाः क्षम्यतां गुणवर्णाः किं भगिनि
वृद्धिसन्धिः न तत्र
वृद्धिः वृद्धिसन्धिः
ऐ ऐ भवति खलु
ऐ भवति
ए ऐ
ए अथवा आम् आम् ए अथवा ऐ अथवा ओ अथवा औ अस्ति चेत् वृद्धिः भवति गुणस्य अपवादः वृद्धिः भवति
किन्तु तद् न अत्र न भवति अत्र वृद्धिसन्धिः न भवति किन्तु पररूपसन्धिः
पररूपसन्धिः भवति
भवति
प्रथमतः अकार एव ह्रस्व अकार एव
सूत्रं अग्रे भवति ह्रस्वाकारः अपि एकारः अस्ति चेदपि वृद्धिसन्धिः भवति किन्तु अत्र वृद्धिसन्धिः न भवति किमर्थम् अस्मिन् उदाहरणे न भवति इति अग्रे अधोभागे लिखितमस्ति
अस्तु
उदाहरणानन्तरं पश्यामः भगिनि भगिनि
महोदय सत्यं
तर्हि तत्र अग्रे तत्र शोभा भगिनी धन्यवादः अग्रे तत्र उषा भगिनी अथवा तत्र
अहं पठामि महोदय
अस्तु पठतु भगिनि तर्हि
उपयोगः ओषति उप् उपयोगः अकारयोगः ओकारयोगः शति अनन्तरम् उपयोगः ओ योगः शति अकार ओकार मेलनेन पूर्व पररूपसन्धि भूत्वा ओकार एव आगच्छति अतः उपयोगः ओकारयोः शति उपोषति
उपोषति इति एव भवति तत्रापि वृद्धिसन्धिः न भवति अकारः ओकारः औकारः न भवति ओकारः एव
ओकारः एव भवति
अतः उपोषति इति एव
उपोषति
इति भवति अस्तु समीचीनं तर्हि अग्रे तत्र वेदा भगिनी अग्रे
हा महोदय शिवाय ओ योगः ओं नमः शिवाय योगः अ शिवाय योग अ योग ओम योग नमः अत्र अकार ओकारस्य स्थाने पररूपसन्धि भूत्वा ओकार ओम इति एव तिष्ठति शिवाय योग ओम योग नमः शिवायोम नमः इति रूपम् आगच्छति
तर्हि तत्रापि तत्र
ओम
तत्र किमपि तत्र अकारस्य तत्र अकारः गच्छति ओम् इति किमपि परिवर्तनं तत्र न भवति
न भवति अकार ओकारस्य स्थाने एक पररूप एकादेशः भवति
पररूप न पररूप सत्यं पूर्वरूप नास्ति पररूपस्य एव आदेशः अस्तु अग्रे अग्रे पठतु भगिनि
तत्र अहं दृष्टवती महोदय तत्र सूत्रं किं वदति इत्युक्ते एकसूत्रमस्ति एङ्गी पररूपं तत् सूत्रं केवलम् उपसर्गपरे एव अस्ति यत्र
अतः अग्रे यद् दत्तमस्ति तत् पठतु भगिनि
अस्तु एतेषु उदाहरणेषु अकारात् परतः ए ओ वर्णौ स्तः तत्र अयोगः ए अपि च ओ वर्णयोः स्थाने ए योगः ओ इत्या ए अपि च ओ इत्यादेशः सम्पन्नः अस्ति. अवर्णान्तात् उपसर्गात् एकारादौ धातौ परे एकारः ओकारादौ धातौ ओमशब्दे च परे अच ओकारादौ धातौ अपि च ओमशब्दे च परे ओकारः पूर्वपरयोः स्थाने एकः आदेशः भवति. वृद्धेः अयम् अपवादः अस्तु.
सन्ध्याः इति किं भवति?
सन्ध्याः इति सन्ध्या इति स्त्रीलिङ्गपदस्य भवति वा? सन्ध्या
समीचीनं. सन्देहे इति तत्र
सन्धि यत्र सन्देहे तस्य अपवादम् अपवादसु अस्ति एतत् इति
अस्ति. समीचीनं भगिनि. नाम उपसर्गः अपि धातुः तदा एव तत्र पररूपसन्धिः.
एक त्रुटि अस्ति इति मन्ये अन्ना जानामि. ओकारादौ धातौ ओम् शब्दे च परे ओकारः इति वदति, परन्तु ओम् शब्दस्य स्थाने ओम् एव तिष्ठति. ओकार न, ओम् एव अस्ति इति.
तत्र सत्यं भगिनि. तत्र द्रष्टव्यमस्ति. समीचीनं भगिनि. तत्र शिवायो नमः इति द्रष्टव्यमस्ति भगिनि. अस्तु, किन्तु समीचीनप्रश्नः. तत्र न जानामि, दृष्ट्वा वदामि. अस्तु, यतोहि तत्र ओंकारस्य ओं शब्दे च परे ओकारः इति एव तत्र दत्तमस्ति. सत्यम्.
अयोगः ए अयोगः ओ ओ अ अपि च आ योगे ओम् ओ
ओ तत्र ओम् इति एव दत्तमस्ति भगिनि. तत्र ओकारः अथवा ओम् इति द्वा तत्र प्राश ओकारस्य स्थाने
ओ अण्ड्
तत्र द्वयोः द्वयमपि साधु इति लिखितमिति मन्ये खलु. यतिः मकारः तत्र आवरणे अस्ति, तत्र विकल्पेन तत्र ओ अथवा ओम् द्वयोः द्वयमपि साधु इति लिखितमस्ति अत्र. अग्रे
अस्मिन् सन्धौ पूर्वपरयोः स्वरयोः स्थाने परस्वरः आदेशः भवति, अतः पररूपसन्धिः इति नाम
इति अस्ति. अस्तु, समीचीनं. तर्हि तत्र वृद्धिसन्धिः, अत्र वृद्धिसन्धिः न भवति. यत्र तत्र उपसर्गः अस्ति अपि अवर्णन्ताद् नाम उपसर्गस्य अन्ते अवर्णः अस्ति, ह्रस्वकारः अपि धातोः आदौ तत्र एकारः वा ओकारः वा अस्ति अथवा ओम् इति अस्ति चेत् तदा वृद्धिसन्धिः न भवति, पररूपसन्धिः भवति. अत्र अपवादः, वृद्धिसन्धेः अपवादः अस्ति. अस्तु, इदानीं समीचीनम्. इदानीं पलविभगिनी अग्रे अस्य अपवादः.
अस्य अपवादः एकारादौ इण् धातौ एध धातौ च परे पररूपं न किन्तु वृद्धिरेव, यथा उप अधिक एति उप उप अकार योगे एकार तर्हि तत्र वृद्धिसन्धिनियमेन ऐकार एकादेशः भवति, उपैति इति सिद्धरूपम्.
तर्हि तत्र उप
यदि धातुः अस्ति अग्रे
एकारः अपि अस्ति किन्तु तत्र पररूपसन्धिः न भवति, किन्तु तस्य पुनः अपवादः भूत्वा
अधिक एधते अत्र एध धातु तर्हि अकार एकार तत्र एकादेश भूत्वा ऐकार भवति वृद्धिसन्धिनियमेन, तर्हि प्रैधते इति सिद्धरूपमस्ति. अत्र अपि उपसर्ग अस्ति परन्तु पररूप न भवति वृद्धिसन्धिनियमः एव तर्हि केवलं द्वौ धातौ कृते एव अस्ति
इण् इति तस्य लट्लकाररूपम् अस्ति एति
एति
एदिति धातोः लट्लकरूपम् एदते अतः धातुद्वयमेव अस्ति समीचीनं हा तत्र एव तत्र अपवादः अस्ति उप इति अपि प्रैधते इति हा अपि श्लोकः अस्ति तत्र षष्ठ अध्याये उप इति
प्रशान्तमनसं येनं योगिनं सुखमुत्तमम् उपैति शान्तरजसं ब्रह्मभूतम् अकल्मषम् प्रशान्तं मनसं यस्य मनः शान्त अस्ति तं येनं हि एनं योगिनं सुखम् उत्तमं द उत्तमं सुखम् अस्ति उपैति शान्तरजसम् उपैति
भगिनि तत्र प्राचे एतद् कुर्मश्चेत् सरलं भवति तत्र उपैति इति क्रियापदं खलु उपैति इति क्रियापदं कर्तृपदं किमस्ति उत्तमं सुखम् अस्ति कर्तृपदम् उत्तमं सुखं कस्य समीपम् आगच्छति उपैति नाम तत्र तस्य समीपम् आगच्छति खलु तर्हि उत्तमं सुखम् एनम् एनं नाम
तस्य समीपम्
अयमिति तस्य द्वितीयविभक्ति एनम् नाम एतम् एतं योगिनम् योगिन योगी कीदृशः अथवा इत्युक्ते तत्र शान्तरजसः प्रशान्तमनसः अकल्मषः ब्रह्मभूतः योगी यः अस्ति अयं योगी तादृशः अस्ति चेत् तत्र तस्य समीपे उत्तमं सुखम् आगच्छति उप इति अतः तत्र सरलवाक्यं तु सरलमेव तत्र कर्तृपदं कर्मपदस्य अनेकानि विशेषणानि योगिनम् इति कर्मपदम् अपि तत्र शान्तरजसं ब्रह्मभूतम् अकल्मषं प्रशान्तमनसम् इति विशेषणानि इति अस्ति अस्तु अतः इदानीम् अद्य वयम् अपवादस्य अपवादः अपि दृष्टवन्तः उत्तममस्ति अस्तु समीचीनम् इदानीं तत्र सुजाता भगिनी अन्ते तत्र शान्तिमन्त्रं वदति वा भगिनि
आं महोदय सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः हरिः ॐ शिवभ्यो नमः हरिः ॐ धन्यवादः
धन्यवादः भगिनी